अथ द्वितीयः पादः गाङ्कुटादिभ्यो निणिङित् विज इट् विभाषोर्णोः सार्वधातुकमपित् असंयोगाल्लिट्कित् इन्धि भवतिभ्याञ्च मृडमृदगुधकुशक्लिशवदवसक्त्वा रुदविदमुषग्रहिस्वपि पच्छसंश्च इकोझल् हलन्ताच्च लिङ्सि चावात्मनेपदेषु उश्च वागमः हनस्सिच् यमो गन्धने विभाषोपयमने स्थाघोरिच्च नक्त्वा सेट् निष्ठाशीङ्स्विदिमिदिक्ष्विदि धृषः मृषस्तितिक्षायाम् उदुपधाद्भावादिकर्मणोरन्यतरस्याम् पूङ्क्त्वा च नोपधात्थफान्ताद्वा वञ्चिलुञ्च्युतश्च तृषिमृषिकृषेः काश्यपस्य रलो व्युपधाद्धलादेः संश्च ऊकालोज्झ्रस्वदीर्घप्लुतः अचश्च उच्चैरुदात्तः नीचैरनुदात्तः समाहारस्वरितः तस्यादित उदात्तमर्थः ह्रस्वम् एकश्रुतिदूरात् सम्बुद्धौ यज्ञकर्मण्यजपन्यूङ्खसामसु उच्चैस्तरां वावषट्कारः विभाषाच्छन्दसि न सुब्रह्मण्यायां स्वरितस्य तूदात्तः देवब्रह्मणोरनुदात्तः स्वरितात् संहितायामनुदात्तानाम् उदात्तस्वरितपरस्य सन्नतरः अपृक्त एकाल्प्रत्ययः तत्पुरुषः समानाधिकरणः कर्मधारयः प्रथमानिर्दिष्टम् समास उपसर्जनम् एकविभक्तिचापूर्वनिपाते अर्थवदधातुरप्रत्ययः प्रातिपदिकम् कृत्तद्धितसमासाश्च ह्रस्वो नपुंसके प्रातिपदिकस्य गोस्त्रियोरुपसर्जनस्य लुक्तद्धितलुकि इद्गोण्याः लुपियुक्तवद्व्यक्तिवचने विशेषणानाञ्चाजातेः तदशिष्यं संज्ञाप्रमाणत्वात् लुब्योगाप्रख्यानात् योगप्रमाणे च तदभावे दर्शनं स्यात् प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् कालोपसर्जने च तुल्यम् जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् अस्मदोद्वयोश्च फल्गुनीप्रोष्ठपदानाञ्च नक्षत्रे छन्दसि पुनर्वस्वोरेकवचनम् विशाखयोश्च तिष्य पुनर्वस्वो नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् सरूपाणामेकशेष एकविभक्तौ वृद्धो यूनातल्लक्षणश्चेदेव विशेषः स्त्रीपुंवच्च पुमान् स्त्रिया भ्रातृपुत्रौ स्वसृदुहितृभ्याम् नपुंसकमनुपुंसकेनैकवच्चास्यान्यतरस्याम् पिता मात्रा श्वशुरश्वश्रुवा त्यदादीनि सर्वैर्नित्यम् ग्राम्यपशुसङ्घेष्वतुरुणेषु स्त्री गाङ्कुटाद्युदुपधादपृक्तश्छन्दसि पुनर्वस्वोऽस्त्रयोदश इति द्वितीयः पादः।